एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा वदति, लोकतन्त्रस्य संविधानस्य च रक्षायै गठबन्धनम् इतोपि सबलम्बी दातव्यम्। पञ्चदलीय गठबन्धनेन यो बुटवल स्थाने आयोजिते प्रदेश स्तरीय प्रशिक्षण कार्यक्रमे प्रधानमन्त्री देवावोचत् मार्गशीर्ष मासस्य निर्वाचनानन्तरमपि देशे गठबन्धनस्य सर्वकारः निर्मास्यते। कार्यक्रमे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अवदत्, देशं संविधानं लोकतान्त्रिक गणतन्त्रं च रक्षितुं गठबन्धनं निर्मितं वर्तते। अध्यक्ष प्रचण्ड अकथयत्, राष्ट्रियतायां संविधाने गणतन्त्रे च संकटस्य विद्यमानत्वाद् एतस्य विरूद्धे योद्धुं गठबन्धनम् इतोऽपि आवश्यकं वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल अगदत्, नेपालस्य राजनैतिक आवश्यकताया अनुसारेण निर्मितं गठबन्धनम् इतोऽपि सबलं प्रभावकारी च विधातव्यम्। अध्यक्ष नेपाल अब्रवीत्, संविधानस्य दुर्बलकारिण जनाः निर्वाचनेन पराजेतव्याः। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः, गृहमन्त्री बालकृष्ण खाँड, राष्ट्रिय जनमोर्चा दलस्य कार्यकार्यध्यक्ष रश्मिराज नेपाली, लोकतान्त्रिक समाजवादी दलस्य सन्तोष पाण्डे, नेकपा एकीकृत समाजवादी दलस्य यादव बहादुर रायमाझी च विचारान् व्यक्तवन्तः। एवमेव पञ्चदलीय गठबन्धनेन पोखरायाम् आयोजिताम् प्रदेश स्तरीयाम् कार्यकर्तृमेलाम् उद्घाटयन् प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा अभाषत, गठबन्धनम् राष्ट्रिय आवश्यकता वर्तते। प्रधानमन्त्री देउवा कथयत, निर्वाचनम् संविधानम् संरक्ष्य स्थिरताम् संस्थाप्य समावेशिताम् अग्रे प्रवर्ध्य च राष्ट्रिय एकताम् संस्थापयिष्यति। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पूर्व प्रधानमन्त्री च पुष्पकमल दाहाल प्रचण्ड अब्रवीत्, वर्तमान गठबन्धनम् केवलम् निर्वाचनाय एव निर्मितम् नास्ति। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च माधव कुमार नेपाल दलानाम् गठबन्धनस्य निर्माणस्य चित्यम जनताम बोधयितुम अन्वरुणत, मेलायम नेपाली कांग्रेस दलस्य वरिष्ठ नेता पञ्चदलीय गठबन्धनस्य कार्यदलस्य संयोजकश्च रामचन्द्र पौडेल अवदत्, राष्ट्रिय आवश्यकताया अनुसारेण दलगत सिद्धान्तादुपरि उत्थाय संयुक्त विषयेषु गठबन्धनम् ऐक्यबद्धम् वर्तते। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया निगदति, निर्वाचन आचार संहिताया उल्लंघनस्य सौविध्यम् कस्मै नास्ति। विराटनगरे ह्य आयोजितम् प्रदेश स्तरीय संचार माध्यमैः सह अभिमुखीकरण कार्यक्रमम् उद्घाटयन् असौ अगदत्, आचार संहिताया पूर्णरूपेण क्रियान्वयनम् कारयितुम् आयोग प्रतिबद्धोऽस्ति। स्थानीय स्तरस्य निर्वाचने सम्भूतानाम् न्यूनता दुर्बलतानाम् आगामिनि निर्वाचने आयोगेन द्विरावर्तनात् अवरोध्यते इति प्रतिबद्ध धताम अभिव्यज्यमानः प्रमुख निर्वाचन आयुक्त थपलिया अगदत्, निर्वाचने मतदातृणाम् आकर्षणम् विश्वासम् च वर्धयितुम् संचार माध्यमानाम् भूमिका महत्वपूर्णा वर्तते। असौ अवासत, निर्वाचनम् स्वच्छम् निष्पक्षम् च विधातुम् सर्वेषाम् सहयोगः अपरिहार्यो वर्तते। सर्वोच्च न्यायालयेन रूपन्देही जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य नेकपा एकीकृत समाजवादी दलस्य प्रत्याशिनो राजु गुरूङ इत्यस्य प्रत्याशिता निरस्तीकृता वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशयोः ईश्वर प्रसाद खतिवडा विदस्य कुमार रेग्मिणश्च न्यायपीठेन गुरूङ इत्यस्य प्रत्याशिताम् तत्कालम् न निरस्तीकर्तुम् एतत्पूर्व प्रदत्ताय अल्पकालिकाय अन्तरिमादेशाय निरन्तरताम् न प्रदातुम् ह्य आदिष्टमस्ति। निवेदकेन राजु गुरूङ इत्यनेन चतुस्सप्तत्यधिक द्विसहस्रतमे विक्रम वर्षे कलंक सूच्यां स्थापिते विषये कोऽपि विधेः उपचारः न प्राप्तः, कलंक सूची पूर्ववत् दृष्टे इति च आदेशे उल्लिखितं वर्तते। कलंक सूच्यां विद्यमान नाम्न्या व्यक्त्या प्रतिनिधिसभायाः सदस्य पदस्य निर्वाचने प्रत्याशिता प्रदातुं न शक्यते इत्यतः निवेदकस्य याचनायाः अनुसारेण अन्तरिमादेशं प्रदातुं न शक्तम् इति आदेशे उल्लिखितं वर्तते। स्थानीय स्तर सदस्यानां निर्वाचने प्रत्याशितां प्रस्तुत्य निर्वाचन व्ययस्य विवरणस्य निर्धारितस्य अवधेः अभ्यन्तरे असमर्पकानां मध्ये प्रतिनिधिसभा प्रदेशसभा सदस्यानां समानुपातिक निर्वाचन प्रणाल्या पक्षे आन्तरसूच्यां समाविष्ट नामानः जनाः सार्वजनिकावकाशस्य दिनेऽपि दण्डन शुल्कम् अर्पयितुं शक्नुवन्ति। निर्वाचन आयोगेन गत भाद्रमासस्य एकत्रिंशे दिवसे विहितस्य निर्णयस्य अनुसारेण निर्वाचन योगाधिनियमानुरूपं दण्डन शुल्कं निर्धारितम् आसीत्। एतदनुसारेण निर्धारित दण्डन शुल्कानां प्रत्याशिनां नामसु आगामिनो मार्चमासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य निर्वाचनस्य समानुपातिक निर्वाचन प्रणाल्या पक्षे राजनीतिक दलैः प्रस्तुतायाम् आन्तरसूच्यां समाविष्टेषु सत्सु एतादृशैः प्रत्याशिभिः आत्मभ्यं निर्धारिते दण्डन शुल्के प्रत्याशिनां निवेदनानुसन्धान समयसीमायाः अद्य कार्तिकस्य पञ्चम दिवसे शनिवासरे कार्यालय समयस्य अभ्यन्तरे अर्पिते सति दण्डन शुल्क प्राप्तिर्विवरणं स्थापयितुं निर्णीतम् आसीत्। अद्य सार्वजनिकावकाशस्य दिनेऽपि प्रादेशिकेषु जनपदीयेषु च निर्वाचन कार्यालयेषु कार्यालय समयस्य अभ्यन्तरे दण्डन शुल्कार्पणाय व्यवस्था विहितास्तीति संसूचयन् दण्डन शुल्कस्य असमर्पकानां प्रत्याशिनां नामानि आन्तरसूचितः अपाकरिष्यन्ते इति समानुपातिक निर्वाचन प्रणाल्याः प्रवक्ता गुरूप्रसाद वागले ज्ञापितवान्। गृहमन्त्री बालकृष्ण खाँड भाषते देशे शान्ति स्थापनाय जनताया जीवनस्तरं सजम विधातुञ्च गठबन्धनम् आवश्यकमस्ति। रूपन्देही जनपदस्य सिद्धार्थनगर नगरपालिकायां ह्य आयोजिते कार्यक्रमे गृहमन्त्री खाँड अवोचत् शान्ति स्थायित्वं विकासश्च वर्तमान देशस्य मूल विषया सन्ति। नेपाले शान्ति स्थापनाय राजनीतिक स्थायित्वस्य च कृते विभिन्न राजनीतिक विचारधारावताम् दलानां मध्ये सहमत्या सहकार्येण च गठबन्धनम् निर्मितमस्तीति मन्त्री खाँड स्पष्टीकृतवान्। यमपञ्चक पर्वणः अन्तर्गतम् अद्य यमदीपदानम् धन्तेरस पर्व च समायोज्येते। एतदनुसारेण निकटवर्तिषु जलाशयेषु तारकाणाम् अस्थिभवनात् पूर्वमेव तैलजलाभ्याम् स्नात्वा दीपप्रवाह कार्यम् सम्पाद्यमानम् वर्तते। एवमेव धनाधिपस्य कुबेरस्य प्रीतये नवीनपात्राणि कृत्वा पूजाराधनानि कार्यम् च विधीयते। कर्मेदम् धन्तेरस नाम्ना लोके प्रसिद्धमस्ति। यमपञ्चक पर्वणः कार्तिक कृष्ण त्रयोदशी तिथितो मन्यते। तदपि एतस्मिन् वर्षे कार्तिक कृष्णामावस्यायां खग्रास्य सूर्य ग्रहणस्य कारणेन यमदीपदानं धन्तेरस पर्व च अद्यैव समायोज्यमाने स्तः। उपरितन तामाकोशी जलविद्युत आयोजना अस्यैव कार्तिकस्य अष्टम दिवसात् सप्ताहाय पिधापयिष्यते। आयोजनायां योजितानां उपकरणानां प्राविधिक परीक्षणाय पिधाप्यमानाय परियोजनातः एतदवधौ विद्युत उत्पादनमपि अवरुद्धं भविष्यति। यमपञ्चक पर्वण अवसरे 650-700 मेगावाट मित क्षमताया आयोजनाय पिधापनेनापि कापि समस्या न भविष्यतीति नेपाल विद्युत प्राधिकरणेन ज्ञापितं वर्तते। आयोजनायाः नियमित परीक्षणाय विद्युतः उत्पादनं पिधाप्यमानं वर्तते। एतदर्थम् आयोजनया अस्यैव कार्तिकस्य सप्तम दिवसात् जलाशयस्य जलं न्यूनीकरिष्यते। जलस्य न्यूनीकरणस्य समये तटीय क्षेत्रे आसन्न 12 घण्टावधौ नद्यः प्रवाह वर्धिष्यते इति हेतोः एतदवधौ सावधानताम् अवलम्बितुम् आयोजनया अनुरुद्धमस्ति। नेपाल प्रज्ञा प्रतिष्ठानेन काष्ठमण्डप महानगरपालिकायाः त्रिंशवडा क्षेत्रस्य मैतीदेवी स्थानस्थितस्य लक्ष्मीप्रसाद देवकोटा संग्रहालयस्य परिसरे देवकोटा वाङ्मय मूर्तिः संस्थापयिष्यते। महाकवेः लक्ष्मीप्रसाद देवकोटाविधस्य 14th जन्मजयन्त्याः अवसरे आयोजिते व्यक्तित्व चर्चायाः रचना वाचनस्य च कार्यक्रमे ह्य प्रतिष्ठानस्य निमित्त कुलपतिः डाक्टर जगमान गुरूङ देवकोटा इत्यस्य अध्यात्म प्रदर्शिका भारत चीन देशयोः मैत्री सम्बन्ध दर्शिका च वाङ्मय मूर्तिः संस्थाप्यमानास्तीति असूचयत। तनहु जनपदस्य बन्दीपुर ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य सिस्नेघारी स्थाने चित्रव्याघ्रस्य आक्रमणेन ह्य बालिका मृतास्ति। मृता 11 वर्षीया बिना चेपाङ अस्ति बन्दीपुर ग्रामपालिकायाः प्रवक्ता शिवकुमार श्रेष्ठ ज्ञापयत। गृहात् मातृश्वशुः गृहं गमनसमये सालघारी स्थाने चित्रव्याघ्रस्य आक्रमणेन बालिकासौ मृतास्ति। पाकिस्तान देशस्य निर्वाचन आयोगेन पूर्व प्रधानमन्त्रिणा इमरान खान इत्यनेन आगामी नि पञ्चवर्षाणि यावत् निर्वाचने भागं ग्रहीतुं न शक्यते इति उद्घुष्टमस्ति। सत्तायां विद्यमान समये पूर्व प्रधानमन्त्री खान भ्रष्टाचारे संलग्न आसीत्, अनावश्यक रूपेण उपहारादीनि वस्तूनि च गृहीतानि इति आरोप्यमाणेन तत्रत्य निर्वाचन आयोगेन एवं आदेशः श्रावितो वर्तते इति समाचारः।